अथ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं द्वादशस्तोत्रम्। अथ द्वादशस्तोत्रे प्रथमोऽध्यायः। वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् इन्दिरापतिमाद्यादिवरदेशवरप्रदम्। नमामि निखिलाधीशकिरीटाघ्रष्टपीठवत् हृत्तमशमनेर्काभं श्रीपतेः पादपङ्कजम्। जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीषितुः स्वर्णमञ्जीरसंवेतमारूढं जगदम्बया। उदरं चिन्त्यमीशस्य तनुत्वेऽप्यखिलं भरम् वलित्रयाङ्कितं नित्यमुपगूढं श्रियैकया। स्मरणीयमुरो विष्णोरिन्दिरावासमीषितुः अनन्तमन्तवदिव भुजयोरन्तरङ्गतम्। शङ्खचक्रगदा पद्मधराश्चिन्त्या हरेर्भुजाः पीनवृत्ता जगद्रक्षा केवलोद्योगिनो निशम्। सन्ततं चिन्तयेत्कण्ठं भास्वत्कौस्तुभभासकम्। वैकुण्ठस्याखिला वेदा उद्गीर्यन्ते निशम्यतः। स्मरेतयामिनीनाथ सहस्रामितकान्तिमत् भवता पापनोदीड्यं श्रीपतेर्मुखपङ्कजम्। पूर्णानन्यसुखोद्भासि मन्दस्मितमधीषितुः गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम्। स्मरामि भवसन्तापहानिदामृतसागरम्। पूर्णानन्दस्य रामस्य सानुरागावलोकनम्। ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम्। भ्रूभङ्गं पारमेष्ठ्यादिपददायि विमुक्तिदम्। सन्ततं चिन्तयेनन्तमन्तकाले विशेषतः नैवोदापुर्गृणन्तोऽन्तं यद्गुणानामजादयः। इति द्वादशस्तोत्रे प्रथमोऽध्यायः।